अथ षष्ठ स्कंध अथ सप्तदशोऽध्याय श्री शुक उवाच जत्ताश्चान्तरहितोऽनन्तस्तस्य कृत्वाद्दिशे नमः विद्याधरश्चित्रकेतुश्चचार गगनेचरः सल्लक्षं वर्षलक्षाणाम् अव्याहत बलेन्द्रिय स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः कुलाचलेन्द्रद्रोणीषु नानासंकल्पसिद्धिषु रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् एकदा स्वाभिमानेन विष्णुदत्तेन भास्वता गिरिशं ददृशे गच्छन् परितं सिद्धचारणैः आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि उवाच देव्यः श्रीमत्या जहासोच्चैस्तदन्तिके चित्रकेतुर्वाचम् एष लोकगुरु साक्षात् धर्मं वक्ता शरीरिणाम् आस्ते मुख्य सभायां वै मुक्थुनी भूय भार्यया जटाधरस्तीव्रतपा ब्रह्मवादी सभापति अंकीकृत स्त्रियं चास्ते गतहिरिः प्राकृतो यथा प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति अयं महाब्रद्धरो विभर्ति सदसि स्त्रियं श्रीशुक उवाच भगवानपि तच्छ्रुत्वा प्रहस्या गाधुर्नृप तूष्णीं बभूव सदसि सभ्यश्च तदनुव्रता इत्यतद्वीर्यविदुषी ब्रुवाणे बहुशोभनम् रुषाः देवि धृष्टाय निर्जितात्माभिमानिने पार्वती उवाच अयम् किमधुना लोके शास्त्रादण्डधरः प्रभु अस्मद्विधानम् दुष्टानाम् निर्लज्जानाम् च विप्रकृत न वेदधर्मम् किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदाद्या न वै कुमारः कपिलो मनुश्च ये नो निषेध्यन्ततिवर्तिनम् हरम् एषामनुध्येय पदा जुग्मम् जगद्गुरुम् मङ्गलमङ्गलम् स्वयम् यः छत्रबन्धुः परिभूय सूर्यन् पुरुषाश्च धृष्टस्तदयम् निदण्ड्यः नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् सम्भावितमतिस्तब्ध साधुभिपर्युपासितम् अतः पापीय संयोनिम् आसुरीम् जाहि दुर्मते जथेह भूय महताम् न कर्ता पुत्र किल्विषम् श्रीशुक उवाच एवम् सप्तश्चित्रकेतुर्विमानादौरुह्य सह प्रसादयामास सतीम् मूर्ध्ना नम्रेण भारत चित्रकेतुर्वाच प्रतिगृह्णामि ते शापम् आत्मनोऽञ्जलिनाम्बिके देवैर्मर्त्याय यत्प्रोक्तम् पूर्वदिष्टमि तस्य तत् संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः भ्राम्यन् सुखम् च दुःखम् च भुङ्क्ते सर्वत्र सर्वदा नैवात्मन पुरश्चापि कर्ता स्यात् सुखदुःखयो कर्तारम् मन्यते प्राज्ञ आत्मानम् परमेव च गुणप्रवाह एतस्मिन् कः शापः को नोऽनुग्रह कः स्वर्गो नरकः को वा किम् सुखम् दुःखमेव वा एकः सृजति भूतानि भगवानात्ममायया एषाम् बन्धम् च मोक्षम् च सुखम् दुःखम् च निष्कलः न तस्य कश्चिद्दयितः प्रतीपो न ज्ञाति बन्धुर्न परो न च स्वः समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः तथापि तच्छक्तिविसर्गे सन् सुखाय दुःखाय हिताहिताय बन्धाय मोक्षाय च मृत्युजन्मनः शरीरिणाम् संसृते एव कल्पते अथ प्रसादे न त्वाम् शापमोक्षाय भामिनि जन्मन्निषे असाधुक्तम् मम तत्क्षम्यताम् सति शिशुक उवाच इति प्रसाद्यगिरिसौ चित्रकेतुररिन्दमन् जगाम स्वाभिमानेन पश्यतो स्मयतोस्तयः ततस्तु भगवान् रुद्रो रुद्राणिमिदमब्रवीत् देवर्षि दैत्य सिद्धानाम् पार्षदानाम् च श्रृणुताम् श्रीरुद्र उवाच दृष्टवत्यसि शुश्रोणी हरेरद्भुतकर्मणः महात्म्यम् भृत्यभृत्यानाम् निःस्पृहाणाम् महात्मनाम् नारायण परा सर्वे न कुतश्चन बिभ्यति स्वर्गापवर्ग नरकेषु पि तुल्यार्थ दर्शिनः देहिनां देह संयोगा द्वंद्वानीश्वर लीलया सुखम दुखम मृतिर्जन्म शापोनुग्रह च अविवेक कृत पुंसो यथेदैवात्मनि गुणदोष विकल्पश्च भिदेव सजीवत्कृतः वासुदेवे भगवती भक्ति मुद्वहता मृणाम ज्ञान वैराग्य बीजाणाम नेह कश्चिद् व्यपाशयः नाहं विरिंचो न कुमार नारदौ न ब्रह्मपुत्रा मुनयः सुरेशः विदाम जस्ये हितमंस कांसका न तत्स्वरूपं पृथगीशमानिनहम् न ह्यस्यास्ति प्रियः कश्चिद् न प्रियः स्वपरोऽपि वा आत्मत्वात् सर्वभूतानां सर्वभूत प्रियो हरिः तस्य चायं महाभागश्चित्रकेतुः प्रियो नुगः सर्वत्र समदृक्षान्तो यं चैवाचित प्रियः तस्मान् विस्मयः कार्यः पुरुषेषु महात्मसु महापुरुषभक्तेषु शान्तेषु समदर्शिषु श्रीशुक उवाच इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् बभूव शान्तधीराजम् देवी विगत विस्मया इति भागवतो दिव्यः प्रतिसप्तमलम् तमः मूर्ध्ना सञ्जगृहे शापमितावत् साधुलक्षणम् जज्ञे त्वस्तु दक्षिणाग्नौ दानवीं योनिमाश्रितः वृत्र इत्यभिविख्यातो ज्ञानविज्ञान संयुतः एतत्ते सर्वमाख्यातम् जन्मम् त्वम् परिपृच्छसि वृत्रस्याशुर्जातेश्च कारणम् भगवन्मतेः इतिहासमिमम् पुण्यम् चित्रकेतुर्महात्मनः महात्म्यम् विष्णुभक्तानाम् श्रुत्वा बन्धाद्विमुच्यते य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् इतिहासम् हरिम् स्मृत्वा स जाति परमाम् गतिम् इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहिताम् षष्ठस्कन्धे चित्रकेतुः शापो नाम सप्तदशोऽध्यायः।